सदानिम्बवृक्षस्य मूलाधिवासात् सुधाश्राविणं तिक्तमप्यप्रियं तं तरुं कल्पवृक्षाधिकं साधयन्तम् नमामीश्वरं सद्गुरुं साईं।